कृगदेषु चाप परिघा चूलं भुशुण्डी शिरः शङ्खं सन्दधति करस्त्रिनयनां सर्वाङ्गभूषावृता परशुं गदेषु कुलिशं पद्मं धनुकुण्डिका दण्डं शक्तिमसिं च चर्म जलजं घण्टासुराभाजनं शूलं पाशि सुदर्शने च दधति हस्तै प्रसन्न घण्टाशूलहलानि शङ्खमुसले चक्रं धनुसायकं हस्ताब्जैर्दधति घनान्तविलस शीतांशुतुल्यप्रभा मनुभजे शुम्भादिदे